एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा निगदति ट्रेड युनियन संघस्य अधिकारान् संरक्षितुम् सर्वकारः प्रतिबद्धो वर्तते। नेपाल सर्वकारीय कर्मचारी संघस्य स्थापना दिवसस्य अवसरे ह्य आयोजितम कार्यक्रमम सम्बोधयन् प्रधानमन्त्री देउवा सर्वकारीय कर्मचारी सेवा अधिनियमम शीघ्र मानेतुम सर्वकारेण गृह कार्य विधीयमानम अस्तीति ज्ञापितवान्। प्रधानमन्त्री देउवा भ्रष्टाचारस्य अनियमिततायाश्च नियन्त्रणाय कर्मचारिभिः प्रवर्तनीयम् इत्यत्र बलं प्रददत् प्रावोचत् यस्याः कस्याश्चित् विचारधारायाः कर्मचारिषु सत्स्वपि कार्यसम्पादनस्य क्रमे पूर्वाग्रहरहितेन कार्यं विधातव्यम्। कार्यक्रमे नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः कर्मचारिभिः सह वार्तां विधाय सर्वकारीय सेवाधिनियमाय अन्तिमरूपं प्रदाय शीघ्रं संसदि प्रस्तोतुं सर्वकारस्य ध्यानाकर्षणम् व्यददात्। संघीय विषय सामान्य प्रशासन मन्त्री राजेन्द्र प्रसाद श्रेष्ठ सर्वकारीय सेवाधिनियमे ट्रेड युनियन संघस्य अधिकाराः कर्मचारिणां वृत्ति विकासस्य अधिकाराश्च न न्यूनीकरिष्यन्ते इति प्रतिबद्धताम् व्यक्तवान्। मन्त्री श्रेष्ठः अधिनियमम् क्रियान्वेतुम् सर्वैः दलैः पक्षैश्च सह सहमतिम् धृत्वा सर्वकारः अग्रे वर्धते इति अज्ञापयत्। प्रतिनिधि सभायाः गतदिवसीय उपवेशन एतद् विक्रमवर्षीयं कतिचित् नेपालादिनियम संशोधन विधेयकं विमृश्यताम् इति प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। विधि न्याय संसदीय विषय मन्त्रिणा गोविन्द प्रसाद शर्मा कोइराला विधेयेन प्रस्तुतः प्रस्तावसौ सर्वसम्मत्या स्वीकृतोऽस्ति। तत्पूर्वं सभया एतस्य विधेयकस्य प्रस्तुत्यै प्रतिनिधिसभा नियमावल्याः अनुसारेण समयसीमायाः न्यूनीकरण सम्बद्ध नियमावल्याः पञ्चाशद उत्तर द्विशततम नियमस्य अनुसारेण नियम निलम्बनकारी प्रस्ताव बहुमतेन पारित आसीत। प्रस्ताव आदृत्य विरोधस्य सूचना प्रस्तुवन् सांसद प्रेम सुवाल शासनस्थै जनैः शक्तिम् दुरुपयुज्य विधेयकस्य आनयनाय समयस्य न्यूनीकरणम् अनुचितमस्तीति अवदत्। विरोधस्य सूचना पुरस्कुर्वन्तम् सांसदम् उत्तरयन् विधि न्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा कोइराला कतिचित् नेपालादि नियम संशोधन विधेयके अन्तर राष्ट्रिय विध्यनुसारेण विधेय संशोधनस्य आवश्यकत्वात् विभिन्नानां षोडश विधीनां संशोधनत्वेन विधेयकम् आनीतमिति अगदत्। तत्पूर्वम् उपवेशे प्रतिनिधिसभायाः सचिवेन गोपालनाथ योगिना राष्ट्रपतिना पुनर्विचाराय प्रतिप्रेषितस्य एतद् वैक्रमाब्दस्य नेपाल नागरिकता प्रथम संशोधन विधेयकस्य सम्बन्धे राष्ट्रियसभातः प्राप्तः सन्देशः ज्ञापितः आसीत्। विभिन्नासु समितिषु मनोनयनाय परिवर्तनाय च सभामुखेन अग्निप्रसाद सापकोटा विधेयेन प्रस्तुते प्रस्तावे उपवेशन सहमतिर्ज्ञापिता आसीत्। उपवेशस्य प्रारम्भे विशेष समयम् अभियाच्य राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्षश्च सांसद राजेन्द्र लिङ्गदेन सांसद पदात्यागपत्रम् उद्घोषयत्। सांसद लिङ्गदेन निर्वाचनस्य दिनाङ्कानां पूर्वमेव घोषणायाः अवस्थायां संसदः यथावत् संस्थितेः निर्णय आत्मानं लज्जितं दुःखितं च कारयतीति भाषमाणः आत्मने प्राप्तव्यानि वेतनभरणसौविध्यानि गतदिवसादेव न प्रेषयितुम् अन्वरुणत्। सांसद भीमसेनदास प्रधान अवदत् राजनीतिक द्वन्द्वस्य चक्रव्यूहे प्राप्तं त्रिभुवन विश्वविद्यालयं राजनीतितो मुक्तं विधातुं प्रयासः कर्तव्य। सांसद प्रेम सुवाल नागरिकता विधेयकं प्रमाणीकरणाय प्रेषणात् रोद्धव्यम् निर्वाचनस्य घोषणानन्तरं संसद सञ्चालनं निरुध्य तटस्थ सर्वकार उद्घोषणीयश्चेति अभाषत। तत्पूर्वं शून्यसमये सांसद अवदन् मार्गेषु स्वेच्छया परित्यक्ता पशवो व्यवस्थापनीया डेंगूरोगस्य नियन्त्रणं विधेयम् त्रिभुवन विश्वविद्यालयस्य समस्यानां शीघ्रं समाधानाय प्रयतनीयम् महार्गताया नियन्त्रणं कर्तव्यम् कृषकेभ्य जलविप्लवस्य क्षतिपूर्ति तत्कालं प्रदातव्या च। प्रतिनिधिसभायाः अपरोपवेश स्व भाद्रस्य एकविंशे दिवसे मंगलवासरे दिवा एकवादने वस्ता। प्रतिनिधि सभायाः माभियोग परामर्शन समित्या ह्योऽपि प्रधान न्यायाधीश चोलेन्द्र शमशेर जबराभिधात् प्रकथन विवरणं गृहीतमस्ति। प्रकथन विवरणस्य प्रदानस्य क्रमे जबरा इत्यनेन सशस्त्र प्रहरी बलस्य पूर्व प्रहरी नायब महानिरीक्षकस्य रंजन कोइरालाभिधस्य न्यायिक प्रकरणस्य निर्णयस्य क्रमे स्वस्य त्रुटि स्वीकृतेति नेपाली कांग्रेस दलस्य सचेतक पदीय समितेः सदस्यश्च मीन विश्वकर्मा अज्ञापयत्। रंजन कोइराला विधस्य न्यायिक प्रकरणे विहितायाः त्रुटेः कारणेन माभियोगः आक्षिप्तोऽस्ति चेत् क्षमां याचेत्युक्त्वा जवराभिधेन समित्यै प्रकथन विवरणं प्रदत्तमिति नेता विश्वकर्मा ज्ञापितवान्। स्वस्य भार्यायाः विभत्सरूपेण हत्यायाः अभियोगे कोइराला विधाय निर्धारितं 20 वर्षाणां कारावासन दण्डनं न्यूनीकृत्य जवरा इत्यनेन दण्डनम् 8 वर्षेषु सीमितीकृतम् आसीत्। समित्या विधातव्यानां 43 प्रश्नानां मध्ये ह्य 5 प्रश्नेषु जवरा इत्यनेन प्रकथन विवरणं प्रदत्तमस्ति। समित्या प्रकथन विवरण ग्रहणाय जबरा भाद्रस्य 25 दिवसे पुनः आहूतोऽस्ति। संघीय संसदः महिला सामाजिक समित्या मानव विक्रयण नयनानयन नियन्त्रण नीतिं निर्मातुं सर्वकारः निर्दिष्टो वर्तते। नेपाले मानव विक्रयणस्य अवस्थायाः पीडितानाम् उद्धार पुनस्थापनयोः निरोधनस्य मार्गचित्रस्य च सम्बन्धे विमृष्टुं ह्यः सिंहप्रासादे उपविष्टेन समितेः उपवेशेन मानव विक्रयण नियन्त्रण सम्बद्धायाः नीतेः अभावेन मानव विक्रयणस्य निरोधनं नियन्त्रणं च सम्भूते नस्त इति निगद्य मानव विक्रयण नयनानयन नियन्त्रण नीतिं निर्मातुं सर्वकारः निर्दिष्टोऽस्ति। एवमेव समित्या विशेषतः बालबालिकानां महिलानां च विक्रयणं विद्यमानं भवति, एता एव बाध्यकारी श्रमे नियोज्यमान सन्तीत्यतः एतासां स्थानान्तरणे विदेशगमनस्य क्रमे च स्थानीयस्तरेषु अद्यावधिकं विवरणं स्थापयितुं सम्बद्धनिकायाश्च निर्दिष्टाः सन्ति। समित्या पीडितजनानाम् उद्धारसहयोगयोः कृते मोबाइल एप सञ्जाल प्रविधिं सञ्चालयितुं च निर्दिष्टं वर्तते। पञ्चदलीय सत्ता गठबन्धनेन आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा प्रदेशसभानां सदस्यानां निर्वाचनस्य कृते शीघ्रमेव स्थानानाम् आवंटनस्य विषयः निर्णयं प्राप्स्यते इति निश्चितमस्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन गठबन्धनस्य शीर्षनेतृणाम् उपवेशेन दिनद्वयाभ्यन्तरे स्थानानाम् आवंटनस्य विषयस्य निर्णय प्रापणत्वेन पूर्वकार्यं विहितमस्तीति संचार सूचना प्रविधि मन्त्री नेपाल सर्वकारस्य प्रवक्ता च ज्ञानेन्द्र बहादुर कार्की ज्ञापितवान्। गठबन्धनस्य कार्यदलस्य उपवेश अद्य दिवा 1 उपविशति। नैरन्तर्येण उपवेशम् उपविश्य सहमत्या दिनद्वयाभ्यन्तरे सर्वे विषयाः शीर्षनेतृत्वानां समक्षम् प्रस्तोष्यन्ते इति च मन्त्री कार्की अबोधयत्। स्थानानाम् आवंटनस्य विषये सर्वेषां दलानां न्यायोचिततया सम्मानजनकतया च विजयप्राप्तित्वेन निर्णयः करिष्यते इति असौ सूचितवान्। प्रधानमन्त्रिणः नेपाली कांग्रेस दलस्य सभापतेश्च शेरबहादुरदेवाविदस्य संयोजने उपविष्टे तस्मिन् उपवेशे नेपाली कांग्रेस दलस्य माओवादी केन्द्रस्य नेकपा एकीकृत समाजवादी दलस्य जनता समाजवादी दलस्य राष्ट्रिय जनमोर्चा दलस्य च शीर्ष नेतृणां सहभागी आसीत। तत्पूर्वं नेपाली कांग्रेस दलस्य सभापतेः प्रधानमन्त्रिणश्च शेरबहादुरदेवाभिधस्य नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये स्थानानाम् आवंटनादिषु विषयेषु विमर्शनं सम्भूतम् आसीत्।